यादृशं यादृशं प्रदूषणं नगरेषु वर्तते तादृशं ग्रामेषु न विद्यते.
चतुर्थमपि पठतु.
बालकस्य अध्ययनविषये पितुः चिन्ता आसीत्.
पितुः का विभक्तिः?
पितुः षष्ठी विभक्ति. पितुः चिन्ता आसीत्.
ओके भगिनि,
धन्यवादः महोदय.
सुबोध महोदय, भवान् द्वितीयवाक्यं पठतु भवत्या भवतः.
अहं प्रतिदिनं प्रभातकाले सार्धपञ्चवादने उत्तिष्ठ्वा योगाभ्यासं करोमि.
सम्यक् नास्ति महोदय. उत्तिष्ठति उत्थाय.
उत्थाय, ओके, धन्यवादः.
उत्थाय योगासनं करोमि. सम्यक्. चतुर्थवाक्यं पठतु.
मर्कटाः वृक्षेषु विविधफलानि दृष्ट्वा आनन्देन कूर्दन्ते.
सम्यक्. अन्तिमवाक्यमपि.
श्रीकृष्णः सुदर्शनचक्रेण राजप्रसादे मारितवान्.
राजप्रसादे कं मारितवान्?
Oh, I forgot that one. शिशुपालं मारितवान्.
किमपि
शिशुपालं मारितवान्.
सम्यक् महोदय, धन्यवादः.
धन्यवादः.
अग्रे बालकृष्णमहोदय अस्ति वा?
आं महोदय, नमस्ते महोदय.
नमस्ते महोदय. सो योर् सेकेण्ड् सेण्टेन्स् द्वितीयवाक्यं हनुमन्तस्य सम्यक् नास्ति महोदय. आर् यु मीनिङ्ग् हनुमान्? इन्स्टेड् आफ् हनुमान् मे बि यु केन् यूस् आञ्जनेय. आञ्जनेयस्य विल् बि ओके. सि हनुमान् इस् अ हलन्तशब्दः, हनुमान् खलु. सो यु केन् यूस् हनुमतः विल् बि द षष्टि विभक्ति. पठतु वाक्यं.
रामे हनुमन्तस्य भक्तिः अतिप्रसिद्धः.
सम्यक् नास्ति.
हनुमतः.
हनुमतः. हनुमतः और् आञ्जनेयस्य. चतुर्थं पञ्चमवाक्यम्.
मम गृहे बहूनि बिडालाः सन्ति.
सो जनरलि बहूनि इस् यूस्ड् वित् किं वचनं नाम किं what lingam is it used with?
Srilinga bidala
bahuni itte napunsak lingam. So bidalah is bahavaha, you can say.
Okay,
bahav, you are saying you have many, right?
Yeah.
Bahavah bidalaha santi. And similarly, I think you have one or two more, like seventh one, can you say that pushpeshu?
Pushpeshu bhramarani santi.
So are you meaning bhramaraha?
Yes.
Like bee or some insect?
Yeah.
So it will be Brahmaraha. Brahmaraha, kalu? Brahmaraha. Small things like that. Similarly with Keetaha. Latayam Keetaha Santi. Can you read your first sentence, Mahodaya? प्रथमवाक्यं
वासुदेवस्य भगिनी चेन्नै नगरे वसति.
सम्यक्. अन्तिमवाक्यमपि पठतु.
पेटिकायां कुञ्चिका अस्ति. छुरिका अस्ति.
सम्यक् महोदय. It's very good. You have done almost all the different types. Uttamam Mahodaya. Just keep the lingam in mind.
Okay.
And if in doubt, you can look it up in that dictionary. It will give you what it is.
Thank you.
Uttamam Mahodaya. Dhanyavaad. किमं भूमि भगिनी अस्ति वा?
आं, नमस्कारः महोदय.
नमस्कारः भगिनी. केन् यू रीड् योर् थर्ड् सेण्टेन्स् भगिनी?
धेनवः गोशालायां तृणानि खादन्ति.
सम्यक्. पञ्चमवाक्यं
कूप्यां शीतः जलं न पूरयतु.
जलं किं लिङ्गं किम् अस्ति?
I thought it's a napunsakalinga.
Samyak. So sheetam jalam.
Sheetam, okay.
Sheetam jalam.
I thought like ushnaha, so sheetaha. Ushnaha doesn't change, right?
No, it'll be ushnam jalam. Or ushna jalam, if it's one word, you can write like that. Or sheeta jalam. But it has to be one word.
One word, okay. Otherwise, Sheetam Jalam. Okay.
Sheetam Jalam. Tadanantaram.
The first one I write it down Chalati. It should be Chalanti. Yanani Jale Na Chalanti.
Yanam, Yanani. Oh, Yanani. Samyak Bhagini. Chalanti.
Yeah, I just saw it right now.
And what is the seventh one? I could not read that. Some ganam?
Stara ganah. So, stars, gagane drashyante.
Oh, ओके दृश्यन्ते
हा ऐ थॉट इट्स आत्मनेपदि न
राइट राइट बट आई थिंक यू रोट दृश्यते और समथिंग लाइक दैट
दृश्यन्ते like the, right. drashyate for one star so eta taragana is like the cluster of stars so drashyante
samyak bhagi but you wrote dashyante so I was unsure what you meant you didn't write the
dra yeah.
Okay master okay and very good you wrote the I think you, is it you who wrote the lut and the lot? You wrote.
Yeah.
Uttama. One. Patatu bhagini. Lut, lot.
So, Atmanapadi lut lakaraha. Vandate, vandete, vandante, vandase, vandethe, vandadve, vande, vandavahe, वंदा महे एंड आत्मनेपदी लोट लकारह वंदताम वंदे ताम वंदन्ताम वंदस्व वंदे थाम वंदद्वम वंदै वंदा वहै वंदा महै
उत्तम भगिनी धन्यवाद
धन्यवाद धन्यवाद
अग्रे जया भगिनी अस्ति वा
जया भगिनी नास्ति महोदय
ओके अग्रे अनिता भगिनी अनिता भगिनी अस्ति वा ओके नास्ति अस्ति वा न श्रूयते म्यूट् मध्ये अस्ति वा भगिनि ओके वेल्कम् बेक् टु यु भगिनि काण्ट् हियर् यु वैभवी भगिनी अस्ति वा
आं महोदय नमो नमः
नमो नमः भगिनी प्रथमवाक्यं पठतु किञ्चित्
अहं पुस्तके स्तोत्रं लिखामि
ओके वाट् डिड् यु रैट् इट् वास् किञ्चित् दोषः अस्ति प्रोम् आर् संथिङ्ग् यु रोट् यु मीन् स्तोत्रम् can you see your this thing what you have written
amode pustakam samipe asti
strom asti strom likitavati bhavati
stotra oh
तृतीयवाक्यं पठतु
महोदय भगिनी केन् यु प्लीस् रिपीट् दट् सेण्टेन्स्
अहं पुस्तके स्तोत्रं लिखामि
धन्यवादः
तृतीयवाक्यं पाकशालासु भाण्डानि सन्ति.
पाकशालासु अनिता भगिनी कृपया लॉग आउट कृत्वा पुनः लॉग इन करोतु. आई थिंक यू मे हैव प्रॉब्लम. वैभवी भगिनी पंचम वाक्यम किम अस्ति? व्हाट डिड यू वांट टू से देयर?
दैट इन द पार्लियामेंट देयर आर लॉट ऑफ मिनिस्टर्स. संसदयां बहवः मन्त्रीन् आसन्.
ओहो हो संसि संसदस दकारान्त. इट्स अ हलन्त शब्द. दकारान्त स्त्रीलिङ्ग शब्द. सो संसदि भविष्यति.
संसदि. ओके.
संसदि और सं और संसद भवने यू कैन से और संसदि बहवः मंत्री नह. यू आर सेइंग लॉट ऑफ मंत्री.
आम महोदय.
मंत्री नह आसन.
संसद. आम महोदय.
ओके. आई थिंक अदर्स आर ओके. ओके भगिनी धन्यवाद.
धन्यवाद.
राजश्री भगिनी अस्ति वा?
आं महोदय. नमस्ते महोदय.
नमस्ते भगिनी. ओके फर्स्ट वन इज ओके. इंस्टेड ऑफ वृक्षः you are using bahavah vrikshaah.
Acha okay. So even pakshinah
pakshinah is fine.
Okay. Pakshinah is bahuvachanam, is it?
Bahuvachanam, yeah. Pakshin is the word pakshi.
Okay. Pakshin. So vrikshaah. Okay.
Patatu vakyam.
Vane bahavah pakshinah vrikshaah cha santi. Then shishuhu shayyayam shete.
That is fine. Ekanimisham.
Asmin third one.
Third one is fine. Sixth one, can you read? What do you mean by that?
Putraha. There's a spelling mistake. Putraha pitari kupyati. I missed the spelling is wrong. Yeah.
So kupyati is getting angry, right? Kupyati.
Yes.
Kupyati, we have seen it should be chaturthi vibhakti.
Okay.
So putrah pitre kupyati or krudyati. Oh, putrah krudyati va. Oh.
Pitre.
Okay.
Pitre.
Or pita putraya krudyati. Maybe better.
So,
But that is chaturthi. You cannot use saptami there.
Oh, okay. So it will be putraha pitre kupyati.
And pitre is the chaturthi vibhakti or pita. Okay, you can look at the table. Let me. Can you see the screen, Bhagini?
आं महोदय आं महोदय
पित्रे पित्रे
पित्रे हा ओके सो पुत्रः ऐ थाट् इमोशन्स् usually they it's given that you can use saptami so that
usually kopah kop that that kind of emotion you use chaturthi vibhakti
okay
and what's your last sentence
bhaktanam shreshtah prahladah bhakteshu it will be
bhaktanam ka vibhakti hi
shashti sorry bhakteshu shreshtah okay yeah that is a mistake bhakteshu so it will be bhakteshu right
yeah धन्यवाद भगिनी
धन्यवाद
रामेश्वरी भगिनी
मनुष्येषु कुतूहलं तेषां प्रगतेः कारणम्
मनुष्येषु सम्यक् So here the sentence about that also
think samaneva dosham krutavati anjaneyasya rame ativadarah asit
or if it's hanuman
hanumatah
hanumat like bhavan it will be similar to bhavan भवतः नाम किं खलु सो हनुमतः पठतु हनुमतः
हनुमतः रामे अतीव आदरः आसीत्
सम्यक् एण्ड् ओके I think I will fine. Read any other one or two that you would like.
Bhimah Duryodhanam Urav Gadaya Prahrutvan.
Prahrutvan.
I wrote... Prahrutvan, I also don't know.
Means Mardiya, Prahrutvan.
Praharam Krutvan, like Prahrutvan.
Prahrutvan. Rana Prahrutvan.
Okay.
Again, can you repeat that sentence once?
Bhimaha. दुर्योधनम् ऊरौ गदया प्रहृतवान् ताडितवान्
सम्यक् सम्यक् भगिनी ऐ थिङ्क् यु हव् डन् वेल् धन्यवादः भगिनी
धन्यवादः
And I'm pointing out where there are some minor issues. Otherwise, everything is good. So, take that into consideration. Himangi Bhagini Astiva?
Mohodaya, Asmi, Namaste.
Namaste, Bhagini. द्वितीयवाक्यम्
आं महोदय अद्यतनं कक्षायां किम् अध्येयम्
अम् आवश्यकं नास्ति अद्यतनकक्षायाम्.
अद्यतनम् अच्छा, सो दट् डाट् इस् नाट् रिक्वैर्ड् इन् आन् नो.
या इट् इस् इट् डसन्ट् चेञ्ज्
अद्यतन. ओके.
रीड् द थर्ड् अण्ड् फोर्थ्.
यः साधकः सः प्रतिदिनं ब्रह्ममुहूर्ते उत्तिष्ठति.
Oh, okay.
So actually I wanted to say early in the morning, but for Brahma Muhurtah, I don't know whether this word is correct. Brahma Muhurtah.
Brahma Muhurtam. It's very early in the morning. 3.
Around 3:30.
Samyak Bhagini. Uttamam.
Agrimavati. Rame Asmakam Shraddhasma.
श्रद्धा अस्ति
बट् श्रद्धा अस्माकं सो ऐ रोट् स्म
नाट् लैक् दट् अस्माकं श्रद्धा अस्ति.
ओके ओके. अस्तु.
सो दट् इफ् नाट् गेट् कन्फ्यूस्ड् दट् इस् कर्तृपदम् should be in the ekavachanam. So then the kriya will follow that.
Okay, so here Ram is kartru, so that is why we are using asti.
So shraddha shraddha asti, not astu. Asti
asti. Astu.
Rame ka asti, Rame shraddha asti. If we ask question to kriya padam, we can get answer.
अस्तु, धन्यवादः.
धन्यवादः भगिनि. सम्यक्. द अदर्स् सर् धन्यवादः. सरस्वती भगिनि.
नमस्ते महोदय.
नमस्ते भगिनि. पठतु द्वितीयवाक्यं पठतु.
तस्यां पेटिकायां मम वस्त्राणि सन्ति.
तृतीयवाक्यं.
तस्मिन् गृहे दौ शुनकौ स्तः.
द्वौ वा द्वौ खलु?
द्वौ द्वौ
द्वौ शुनकौ स्तः. सम्यक्. तस्याम् एन् तस्मिन्, वै डिड् यु यूस् टु डिफ्रेण्ट् देर्?
तस्यां स्त्रीलिङ्गं, स्त्रीलिङ्गशब्द पेटिका, स्त्रीलिङ्ग एकवचनं. सो तस्यां देन् गृहं इस् नपुंसकलिङ्गं. सो ऐ यूस् तस्मिन्.
सम्यक् भगिनि, धन्यवादः. ऐ वाज़् जस्ट् चेकिङ्ग्.
या, ऐ जस्ट् वाण्टेड् टु यूस् डिफ्रेण्ट् फार्म्स् आफ़् नौन्स्.
सम्यक् भगिनि, उत्तमं, धन्यवादः. ऐ थिङ्क् या एव्रिथिङ्ग् भगिनि. साहित्या भगिनी अस्ति वा?
अस्ति महोदय. हलो.
सम्यक्. ओके, योर् थिङ्ग् हेस् कम् इन् वेरि स्माल् भगिनी. ऐ एम् ट्रैङ्ग् टु मेक् इट् बिगर्. प्रथमवाक्यं पठतु.
अहं मिशिगन् नगरे वसामि.
ओ, नगरस्य नाम एव मिशिगन् वा? ओके. अन्तिमवाक्यं पठतु.
भाषायां संस्कृतं श्रेष्ठः.
भाषायां का विभक्तिः?
I thought it's सप्तमी विभक्ति.
So, yeah, so it is right, but you have to use the what vachanam, bahu vachanam, kalu?
Oh, yeah, 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 yeah.
So, what will be the bahu vachanam?
Bhashayena, bhasha, no.
Bhashasu, atra pashyat. See, like bhasha will be like bhashasu.
Bhashasu. Okay.
See the screen here?
Yeah, yeah. Bhashas. Bhashas. Yeah. Okay, Mother. Bhashasu.
And what's your third sentence?
Balakaha Sayamkale ग्रन्थालयं गच्छन्ति.
सम्यक् सम्यक् भगिनि, उत्तमं, धन्यवादः.
धन्यवादः.
अग्रे अपर्णा भगिनी अस्ति वा?
महोदय, नमो नमः.
नमो नमः भगिनि, प्रथमवाक्यं पठतु.
बालकृष्णः प्रेङ्खायां हसति खेलति च.
खेलति इत्युक्ते किम्? इट् इस् जनरलि यूस्ड् फार् समथिङ्ग् एल्स्.
सो इट्स् लैक् या ऐ अण्डर्स्टाण्ड्. क्रीडति 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 च.
खेलति, ऐ मीन् इट्स् नाट् राङ्ग्, बट् इफ् यु वाण्ट् लैक्
द काण्टेक्स्ट् इस् नाट् करेक्ट्.
या या, क्रीडति.
आम् महोदय.
या, सिन्टाक्टिकलि करेक्ट् बट् सिमेण्टिकलि मे नाट् बि.
आम् महोदय.
देन् नेक्स्ट् सेण्टेन्स्.
मम अनुजा औषधं कूप्याम् आनयति.
सम्यक्. And what is the next one?
निधानिकाः प्रकोष्ठे सन्ति.
प्रकोष्ठे सन्ति. सम्यक् सम्यक् भगिनि, उत्तमं, धन्यवादः. ओके, सो एण्ड् अगेन् ऐ एम् सेयिङ्ग् wherever there needed some minor changes is where I pointed out. Don't get disheartened, otherwise everything was good. Anita Bhagini, can you hear us now? Anita Bhagini asti va?
नमस्ते महोदय, किमिति महोदय?
किञ्चित् डिस्टर्बेन्स् भगिनि, बट् ऐ थिङ्क् यु हेड् आडियो सेण्टेन्स् वर् गुड् भगिनि, इफ् यु केन् यु रीड् युर् फस्ट् एण्ड् थर्ड्.
बालकाः क्रीडाङ्गणे क्रीडन्ति. एण्ड् थर्ड् वन् इस् भारतदेशे कति राज्यानि सन्ति? लास्ट् सेण्टेन्स् वास् नाट् करेक्ट् रैट् महोदय. संस्कृतभाषे वास् वाट् ऐ रोट्. ऐ थिङ्क् इट् शुड् बि संस्कृतभाषायां मम अभिरुचिः अस्ति.
एकनिमिषं, लेट् मी पुल् युर् सर्. सम्यक्. पुनः वदतु.
संस्कृतभाषायां मम अभिरुचिः अस्ति.
और संस्कृते यू कैन से
संस्कृते. ओके.
आई मीन बोथ आर
या बिकॉज भाषा ओपर आई हैव रिटन भाषायां इजंट इट इट नॉट बी भाषे.
भाषा इज अ आकारांत
आकारांत यानि स्त्रीलिंग शब्द. अंडरस्टूड.
धन्यवाद.
धन्यवाद महोदय.
ओके सो did anybody have a problem filling in the other part of the homework? I think everybody did it fine. So okay, let's quickly do a couple of them. Balakrishna Mahodaya, can you do labhate and ramate? बालकृष्णमहोदय अस्ति वा?
आं महोदय.
लभते या
लभते एण्ड्
रमते द नेक्स्ट् वन्.
ओके ओके. लभते लभतां लभन्तां सः लभतां ते लभन्तां त्वं लभस्व यूयं लभध्वम् अहं लभे वयं लभामहे.
सम्यक्. अग्रिममपि
रमते सः रमतां ते रमन्तां त्वं रमस्व यूयं रमध्वम् अहं रमे वयं रमामहे.
सम्यक्. धन्यवादः. सो जस्ट् गेट् यूस्ड् टु दिस् पेटर्न्. सो दट्स् द मेन् थिङ्ग्. धन्यवादः महोदय. वैभवी भगिनी अग्रे
पठतु. वेपते वेपते पठामि अहं. सः वेपतां ते वेपन्तां त्वं वेपस्वः यूयं वेपध्वम् अहं वेपै वयं वेपामहि.
वेप त्वं किमस्ति?
त्वं वेपस्वः वेपस्व
वे वेपस्व विसर्गः नास्ति तत्र.
विसर्गः नास्ति.
अग्रिममपि करोतु. लज्जते
लज्जते. सः लज्जतां ते लज्जन्तां त्वं लज्जस्व यूयं लज्जध्वम् अहं लज्जै वयं लज्जामहि.
वयं किम्?
लज्जामहि. महि
महै
महि.
इट विल बी द सेम पैटर्न भगिनि. अत्र पश्यतु ऑन द स्क्रीन इफ यू सी इट विल बी द महै
महै. या आई हैव रिटन इट. आई डिडंट प्रोनाउंस इट प्रॉपर्ली.
चिंता मत. धन्यवाद.
धन्यवाद.
जया भगिनी अस्ति वा? ओ नास्ति वा. राजश्री भगिनी अग्रे करोतु.
आम् महोदय. लज्जते न ईक्षते करोमि वा? भवान् सः ईक्षतां ते ईक्षन्तां त्वम् ईक्षस्व यूयम् ईक्षध्वम् अहम् ईक्षै वयम् ईक्षामहे.
धन्यवादः भगिनि. चित्रा भगिनी अस्ति वा?
नमो नमः महोदय.
नमस्ते
भगिनी. युध्यते, सः युध्यतां, ते युध्यन्तां, त्वं युध्यस्व, यूयं युध्यध्वम्, अहं युध्यै, वयं युध्यामहे.
सम्यक्, धन्यवादः भगिनि.
तिष्ठते, सः तिष्ठतां, ते तिष्ठन्तां, त्वं तिष्ठस्व, यूयं तिष्ठध्वम्, अहं तिष्ठै, वयं तिष्ठामहे.
धन्यवादः भगिनि.
धन्यवादः महोदय.
सुबोध महोदय अग्रे करोतु अग्रिम.
ऊहते, सः ऊहतां, ते ऊहन्तां, त्वं ऊहस्व, यूयम् ऊहध्वम्, अहम् ऊहै, वयम् ऊहामहै. विद्यते, सः विद्यतां, ते विध्यन्तां, त्वं विध्यस्व, यूयं विध्यध्वम्, अहं विध्यै, वयं विद्यामहै.
खिद्यते अस्ति महोदय. खिद्यते, खिद्यते, खिद्यते. धन्यवादः. ओके, अग्रे सरामः
महोदय. एकः प्रश्नः अस्ति. वाक्यं संस्कृतभाषायां मम अभिरुचिः अस्ति. मम युक्तं वा या मह्यं युक्तम्?
मह्यं रोचते यु केन् से, बट् अभिरुचि मम अभिरुचि यु केन् से. रोचते विल् बि मह्यम्.
धन्यवादः.
लैक् यु केन् से संस्कृतं मह्यं रोचते, एण्ड् देर् संस्कृतं विल् बि इन् एकवचनं. संस्कृतं रोचते.
मम संस्कृते अभिरुचि अस्मि और् अस्ति?
अस्ति,
रुचि अस्ति.
बट् मह्यं रोचते.
महोदय, अष्टम अभ्यासे प्रश्न अस्ति. वाट् इस् अ मीनिङ्ग् आफ् बिन्धि? ए 13th वन्, त्रयोदश.
न जानामि भगिनि. बिन्दि अहं दृष्ट्वा वदामि.
सेम् थिङ्ग् इस्
महोदय
द्वादश अपि.
नो, द्वादश ऐ फौण्ड् औट् चिनत्ति, बट् दट् बिन्दि ऐ आल्सो कुडन्ट् गेट्. ऐ ट्रैड्.
सो दीस् विल् बी फार् डिफ्रेण्ट् पुरुषः आल्सो. ऐ थिङ्क् दिस् मे बी फार् मध्यमपुरुषः अस्ति प्रायशः. परन्तु दृष्ट्वा वदामि भगिनि.
षोडश सर्प
sarpa means it will be like to slide to slide or glide like the like the sarpa does like so okay. That is a verb.
Tvam sarpa.
Tvam dandaya. We'll try to do this as homework, so you can look up the meaning also, and if not we can I will definitely look at these two. I'm not able to recollect on the top of my head, so
mahode chindi itukte to cut or to grind.
Most of these are to crush or many of these words, you know, like prasport ayat, so I feel, chindi is to cut, maybe to powder, to crush. Yeah,
these are all related to war. That's what I think it says.
Si dandaya, dandayantu. Sammukhi karavama. Sammukhi. So mostly from
facing.
The...
Face.
Like face to face or confront. That's what it usually means. Maraya. Agre pachama. Okay. Ekapati prahapatam. Aparna Bhagini atra patatu.
Ammode. Asamanarthaka padam prithak kurat. So I think it is saying that the wrong term in the group of terms, we have to separate it out.
Asamana means a different mean.
So one that is not common or similar to the group.
Which is different. So this we can do as homework, because you may have to look up one or two of these meanings. But hopefully they are all given in the same lingam, same purusha. So it should be okay. Because if you want to do now, it will take some thinking. So we'll leave it as homework. Bhumi Bhagini, atra patatu, 11, ikadasha.
Am Mahoday. Oshthaka sthanam, vartaman kala kriya rupanam, lotla rupani upayujya vakyani vadata.
Oshthaka sthanam.
Tau, te, पठति शिक्षते वदति ब्रूते त्वं
सः
पठति.
सो तौ विल बी व्हाट
सः तौ ते सो तौ सो फॉर पठति और
पठति.
ओके पठति, सो इट्स गोना बी पठतः. सः पठति, तौ पठतः, ते पठन्ति.
भगिनि अत्र दृष्ट्वा करोतु. सो पठति इज गिवन, यू हैव टू डू द लोट हियर.
ओ ओके ओके. सो सः पठति, सः पठतु.
अत्र दत्तमस्ति खलु लोट् रूपाणि उपयुज्य वाक्यानि वदतु. सो here it is given in lat, so lot parivartya.
So saha patatu, right?
Yeah.
Then tau, so for shikshat, shikshataha, I don't know, is it shikshataha or shikshati? What is the verb, actual verb? I don't know.
So here you can you see my cursor, Bhagini? So here it is given for Parasmaipadi and Atmanepadi. So looking at this, you can do for, you can first read this if you can.
Okay. So, saha pathatu, tau pathatam, te pathantu. So that is Parasmaipadi. And saha sikshatam, tau shikshetam, te shikshantam. That is lot lakar, sikshatam. Is Atmanepade, Lotakar.
Samyak. So, can you try for Vadati and Brute?
So, Saha Vadati, Tau Vadataha, Te Vadanti, that is Parasmaipadi, Latlakar. Then, Parasmaipadi, Lotlakar will be Saha Vadatu, Tau Vadatam, te vadantu. Then, saha, shik, for brute, saha, brute is shiksha. Okay, saha brute, tau, brute te.
Oh, that's a different one, Bhagini. So just do the Brutam. Okay, this also you'll have to. It's a little different. Agre Pashyama. Chintamastu.
Okay.
Dhanyavada, Bhagini.
Dhanyavada.
Hemangi, Bhagini. Madhyama Purishe Karoti.
Just quick question, Mahoday.
So
for Brute, does it become Bruvetam? Or Bruvatam?
Brute, Bruvatam, Bruvatam.
Oh, Bruvatam. Dhanyavad, Mahoday.
So that is one of the exceptions. So let's not go there right now. Who did I call now?
Hemangi.
Madhyama Purusha.
Mahode. Tam Twam.
Karoti Kim Bhavati.
For
Kuru.
Kuru Aya. Tvam Kuru, Yuvam Kuru Tham, Yuyam Kuru Dvam. Tvam Chintaya, Yuvam Chinte Tham, Yuyam Chintadvam.
Chintayati kim asti?
Chintayati latlakarah asti, parasmaipadi.
Parasmaipadi, khalo?
Chamyatam. Okay. Tvam chintaya. Chintaya, yuvam chintetam, this is again Atmanepadi, I'm sorry.
हा सोरि किं
एकनिमिषं भगिनि विल् विल्
त्वं चिन्तय युवां चिन्तयतं यूयं चिन्तयत चिन्तयत
वाट् वाज़् द अदर् वन् कुरुते अस्ति कुरुते केन् यु
ऐ विल् डु इट् महोदय नो नीड् टु सी नौ त्वं कुरु युवां कुरुतं यूयं कुरुत
महोदय कुरुते आत्मनेपदी अस्ति
पुरुष्व कुर्वातं कुरुत्वं
पुरुष्व कुरुष्व कुरुत्वं
कुरुते इन् लो लट् लकारे किम् अस्ति कुरुते कुर्वाते कुर्वते and kurute kurvate kurudve I think we haven't done this bagini so it's not okay chinta mastu we'll come back to this I think we haven't done the special case
okay
okay okay
the special case or it will follow edhate
so the kru dhatu is what is called the ubhayapadi okay so karoti kurutah kurvanti is the parasmaipadi okay lat lakara parasmaipadi is karoti kurutah kurvanti yeah. and lat lakara atmane padi api asti kurute kurvate kurvate
astu
and it's a little challenging
madhya atmane pati ekvaram puna vadatu madhya
atmane pati lat lakare kurute kurvate kurvate okay this is lat lakara kurute kurvate kurvate kuruṣe kurvāthe kurudve
बहुवचनं कुरुते कुर्वाते कुर्वन्ति
कुरुद्वे
मध्यमपुरुषे प्रथमपुरुष बहुवचनं कुर्वन्ति
कुर्वते
कुर्वते
मेबि ऐ विल् गेट् अ स्लैड् नेक्स्ट् टैम् भगिनि
ओके
Otherwise, I don't want to confuse everybody. There are some special cases, but most of them are what we have studied. And Lot Lakara Parasmaipadi will be Karotu, that we have seen, right? Karotu, Kurutam, Kuruvantu, and Kuru. Madhyama Purusha Kuru. Kurutam, Kuruta, Karavani, Karavava, Karavama. And I remember I wanted to say last time also somebody had asked if there are multiple words when you look at this somebody I think googled it or something so many times then later on I realized what you were asking so like this it may have like multiple words I don't know who was asking that and maybe I didn't understand your question but suddenly it struck me So you can use either of the words. Sometimes you will have two or three or four also sometimes. They are different forms, but you can use any one. Ah, so for here it is given some special rules, but generally like for Karotu also there are different forms you can use. Kuru also you can use different forms. But we'll go by the most commonly used, so as not to confuse ourselves. And if I have confused you, just forget what I said the last 2 minutes. So, okay, so this we'll do as homework, and we'll skip this for now. Try to see this. If not, we'll come back to this also next class. Let's move ahead.
अत्र रिक्तस्थालं पाण्डवानां शिबिरम् एतत् कुर्मः. राजश्री भगिनी द्वादश
पठामि वा?
हा पठतु भगिनि.
पाण्डवानां शिबिरं युद्धसन्नाहः प्रवर्तते. सेनापतिः दृष्टद्युम्नः सूचनाः ददाति. आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः कं किम् आदिशति इति लिखत. सो ऐ थिंक इट इज वॉट एवर रिपीट द
आवरणे किमपि लिखितम् अस्ति तत् सूक्तं रूपम् उपयुज्य रिक्तस्थानं पूरयत. फिल द ब्लैंक्स विथ विद प्रॉपर फॉर्म. ओके, प्रयत्नं करोतु. उदाहरणमपि पठतु भगिनि.
सूर्योदयः जातः. यूयं सर्वे उत्तिष्ठत. यूयं सर्वे उत्तिष्ठन्ति. नो, ऐ डिडंट गेट दिस. व्हाट इज
उत्तिष्ठन्ति? दत्तमस्ति, परन्तु उत्तिष्ठत सूक्त शब्दः.
ओके. युद्धार्थं सज्जाः भवन्ति.
भव धातोः युक्तरूपम् उपयोगं करोतु तत्र. किं भवति?
भवति युद्धार्थं सज्जाः
सज्जाः इत्युक्ते किं?
सज्जाः इत्युक्ते अर्थं न जानामि.
गेट् रेडि.
गेट् रेडि. सज्जाः भवन्तु. ऐ थिंक इट विल बी युद्धाः सज्जाः भवन्तु.
भवन्तु आम् आम् सम्यक् भगिनि.
सुकेश
भगिनि, एकः प्रश्नमस्ति.
एकः प्रश्नः. किम्?
युद्धार्थं सज्जाः भवतु सुकेश, बिकोज़ इट्स ओन्ली ही इज एड्रेसिंग वन पर्सन.
सुकेश अहं न दृष्टवती. आम्, सुकेश. सुकेशं प्रति वदति भवतु.
सो इट शुड बी भवतु. धन्यवादः भगिनि.
त्वं द्वारे तिष्ठसि तिष्ठ त्वं द्वारे तिष्ठ
सम्यक्
दट् सुकेश इस् फर् द नेक्स्ट् वन् प्रोबब्लि सुकेश त्वं द्वारे तिष्ठ
सज्जाः इस् बहुवचनं सो भवन्तु
सज्जाः भवन्तु सज्जाः यूय भवन्तु सुकेश त्वं द्वारे तिष्ठतु
If it is for Sukesha, it will be like Yuddhartham Sajjaha Bhavatu Sukesha.
Sajjaha Bhavatu. Sajjaha Asti Tatreva.
Bhavantu.
Sajjaha Bhavantu. Bhavantu.
Bhavantu.
Yeah, that's a good one. Sajjaha.
Okay.
Dhanyavada Bhagini.
Dhanyavada.
I think Sukesha was the sarathi of Bhima, so that's why they are Drishtadyumna is saying that Sukesha is at your doorstep, and like he is saying to Bhima.
Sukeshaha, no, Sajjaha asti khalo, ataha Sajjaha bhavantu praya tatra.
Sukesha was like a sarathi of Bhima. So Drishtadyumna is saying to Bhima that Sukesha is at your doorstep. So I heard that Bhima's sarathi's name was Sukesh.
Yeah, but he's addressing him, right? Sukesha, tvam dvare tishta. Hello.
Yeah.
He is addressing the situation.
Got it.
Himangevi Bhagini Agrima Vakyam Patatu. Astiva.
यूयं खड्गान् तीक्ष्णान् कुरुत
कुरुत सम्यक् भगिनि
कुरुत अग्रिमम् अपि करोमि वा
करोतु
अद्य भवान् गजसैन्यं अद्य भवान् गजसैन्यं नयत
नयत धन्यवादः भगिनि
धन्यवादः
अगेन् दिस् वन् इस् कन्फ्यूजिङ्ग्
भवान् अस्ति खलु
इट् इस् एड्रेस् टु भीम् भीम् अद्य भवान् गजसैन्यं नयतु शुडन्ट् इट् बि नयतु
आम् आम् So if they use tum, then naya, whatever.
Utta,
Bhavan nayatu.
Bhavan nayatu. Nayatu, kim uktavati na smaramida? Nayatu. Bhavan nayatu.
Astu, aham nayata vadita, aham nayata uktavati shamyatam. Nayatu samyakata. Bhavan
nayatu.
धन्यवादः
बालकृष्णमहोदय
आं भगिनि नमस्ते
नमस्ते
भोः यूयं कवचानि धारय
धर किमस्ति धरत खलु
यूयं कवचानि
धर धर इत्युक्ते लैक् धर नो 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 धारय धारयु धारय इत्युक्ते वेरिङ्ग् धर यूजुवलि इट्स् लैक् होल्डिङ्ग् सो धरत् बिकास् इट्स् यूयं खलु यूयम् लाट् आफ् बेक्ग्रौण्ड् नाय्स् किमपि न श्रूयते भगिनि
शिबि मध्यमपुरुष बहुवचन
आम् धरत आम् आम् महोदय
धरत
धरत नोट् त धर इत्युक्ते अत्र होल्डिङ्ग् धार प्राय अत्र
केन् इट् बि धरति एस् वेल् लैक् कवचानि धरति प्रथम पुरुष एकवचन सो इट् केन् बि धरथ फोर् मध्यम पुरुष बहुवचन लैक् धरति धरतः धरन्ति धरसि धरथः धरथ केन् इट् बि लैक् देट्
No, he is giving orders. He is Adish.
No, I understand, but I am asking for Lat Lakar. Lot Lakar. Lat Lakar, can it be?
Ek nimisham. See, whatever Atra Dattam Asti Lat Lakare. Vayam Lot Lakare Uttaram Likhamahatra.
But I am asking like is this verb dharati or something else? That was my question.
Dharati.
Dharati, na? Okay.
Dharati. So dharati is what lakara?
Dharati is parasmaipadi, pratham purush ek vachan. So the madhyam purush will be dharatha. Lat lakara. So, Lot Lakar Dharata.
Madhyama Purusha Bahuvachane. Yuyam Asti Kalu, Yuyam Kavachani Dharata. Agre Nakula Adhyatvam Saraswati Bhagini Karotu.
अद्य त्वं व्यूहं रचय
रचय सम्यक् रचयसि कः लकारः रचयसि
मध्यमपुरुष एकवचनं लट् लकार
सम्यक् सो वी हव् टु पुट् द लोट् लोट् लकारे दृष्टवन्तः खलु रचय अग्रे अपि करोतु भगिनि
सर्वे व्यूहे सज्जाः तिष्ठन्तु
किमर्थं तिष्ठन्तु
wait or stand
no kimar why it is not tishtatu and tishtantu
sarve bahuvachanam pratama purusha bahuvachanam so tishtantu
so you have to understand that kartrapadam kim asti drishtva we have to fill in. Okay dhanyawad bhagini चित्रा भगिनी अग्रिमं करोतु
सेनापतिः अग्रे तिष्ठन्तु सेनापतिः अग्रे तिष्ठन्तु.
तिष्ठन्तु इस् वाट् वाट् वचनम्
तिष्ठन्तु एकवचनं प्रथम पुरुष सेनापतिः इसलिए दैट्स व्हाई सेनापतिः
तिष्ठतु
तिष्ठतु सॉरी सॉरी तिष्ठतु करेक्ट 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 तिष्ठतु करेक्ट सेनापतिः अग्रे तिष्ठतु यूयं यूयं तस्य रक्षणं यूयं तस्य रक्षणं देर् इस् नो फिलिङ्ग् ओ यः ओके 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 सेनापतिः अग्रे तिष्ठतु यूयं तस्य तस्य रक्षणं यूयं कुरुत
सम्यक् कुरुत
कुरुत कुरुत यूयं दट्स् वै वि हाव् टु रैट् इन् दट् कुरुत
यूयं किं मध्यमपुरुष
यूयं मध्यमपुरुष बहुवचनं
धन्यवादः भगिनि इट्स् अ लिटल् कन्फ्यूसिङ्ग् यु हेव् टु लैक् जस्ट् कीप् प्राक्टिसिङ्ग्
या या
अग्रे अनिता भगिनी भवत्याः ध्वनिः कथम् अस्ति
महोदय श्रुणोति वा महोदय अश्वदलं तत्र गच्छति गच्छता अश्वदलः तत्र गच्छता
गच्छति वाट् लकार
गच्छति
भगिनी ओन्ली द पर्सन् हू इस् आन्सरिङ्ग् प्लीज़् आन्सर् एव्रिबडि एल्स् गो आन् म्यूट् धन्यवादः वदतु भगिनी अनिता भगिनी
गच्छतु
गच्छतु या गच्छतु सम्यक् इट् विल् बी द लोट् लकार गच्छतु
गच्छति
लट् लकार खलु
आम् महोदय एते सैनिकाः गजम् आरोहन्ति सो दिस् विल् बी एते सैनिकाः गजम् आरोहन्ति सो आरोहति आरोहतः आरोहन्ति सो दिस् वी हव् टु कन्वर्ट् टु लोट् लकार रैट् महोदय आरोहति ऐम् सारी ऐम् नाट् एबल् टु गेट् इट्
सो लोट् वी हव् सीन् विल् बी द तु एण्ड् अन्तु
आरोहन्तु
आरोहन्तु सम्यक्
It's
only a trick too. They have given the bahuvachanam in lat lakara. So you have to convert it to the appropriate vachanam lingam and in lot. Lingam nasti, but... okay?
Understood, Mother. Got it. Arohantu.
Arohantu. Dhanyavada. अग्रे रामेश्वरी भगिनी करोतु
भवन्तः कुन्तान् गृह्णन्ति भवन्तः कुन्तान् गृह्णन्तु
सम्यक्
शत्रुन् मर्दयन्ति, शत्रुन् मर्दयन्तु.
सम्यक्. See, once you start doing it, you'll get agree api karotu.
Akramanam kurvanti, akramanam kurvantu.
Samyak. Dhanyavada bhagini. Takes a little bit in used to, because you have to see what is given and convert it in your mind. Dhanyavada bhagini. Subodh mahodaya agre karotu.
Sarve dalapatim anusarantu, आज्ञां पालयन्तु च.
उत्तमं,
धन्यवादः.
अग्रे साहित्या भगिनी प्रयत्नं करोति वा?
शत्रुपक्षे अस्त्राणि क्षिपन्तु.
सम्यक्. अग्रे अपि.
सर्वे अरयः पतन्तु.
उत्तमं, धन्यवादः भगिनि.
धन्यवादः.
वैभवी भगिनी अग्रे करोतु.
आं महोदय. योऽयं शत्रून् यमलोकं प्राप्यथ
उत्तमं, प्रापयत. अग्रे
अग्रे करं. वयं सायंकालात् पूर्वं विजयिनः भवाम. वयं विल् बी भवाम.
सम्यक्, उत्तमम्. अन्तिमं,
धर्मरक्षणं कुर्मः. धर्मरक्षणं कुर्माम.
दिस् इस् अ लिटल् डिफरेण्ट्. कुर्वा, व्हाट डिड् यू से?
कुर्माम.
इट् इस् करवाम.
Karvama.
So that we have to see in next class, we'll see. Karavani, Karavava, Karavama. It's a little
bit. Excuse me, Sandhavish Mahadaya. Vijayinaha Bhava Mahaiya.
Dhanyavada.
Bhagini, your voice, it's very it's clear. Can you type in the chat? There is a lot of... going or something like that happening.
Ajay Mahadaya.
Aam Bhagini.
Just wanted to say, after this exercise, I got like perfect understanding of Lat Lakar and Lot Lakar. Like, before we were just doing little bit, so now I understand, like, Drishtadyumna is giving order, so everything is Lot Lakar, so how to use it now.
Samyak. And see, like I said, you know, there is no shortcut, Bhagini. You have to do, and like we discussed last time, how do you you have to think of some formula to remember. Like tu antu, Tam antam for Atmanepadi and Parasmaipadi will be the tu antu, patatu patantu, labetam, labantam, labatam, labetam, labantam. So as you do more and more, it will become easier.
Yeah, and but this form gives like perfect understanding how to use the Lot Lakar. Before we were just doing here and there. So this is good. This one was good. Dhanyavad.
Ajay Mahoday.
Aam Bhagini.
Ajay Mahoday. Vayam Sayankalata Purvam Vijayani Bhavamahai. This is the correct answer. Bhavamaha. Here they have given Bhavamaha.
So Bhavam.
In the blank.
Bhavam. So this is This is a lat lakara parasmaipadi. Okay?
Okay, okay, thank you.
So you have to understand the difference between parasmaipadi and atmanepadi.
Okay, okay. Thank you.
I think we have reached the end of time and it's a logical stop. So, okay, so for next time, we'll do the kru dhatu both, just to confuse you folks a little bit more, we'll do both the atmanepadi and parasmaipadi, okay? Karoti and kurute. So if I forget, please remind us. Okay.
Mahadam, I found it online while we were doing it, so I will share it in the group. So please let us know it is right or not. I just found it on the Google.
What is it, Bhagini?
I just found it for Kru Dhatu, Atmanepade and Parasmaipade. When we were discussing, so I will just share it. So please let us know it is right or not.
Yeah, I have a slide I will get next week, Bhagini. Chinta Master.
Oh, you have it. Okay.
So I will, because it takes a little getting used to. Chinta Master, Agre Saptahe Pashyamah.
Okay, sure. Thank you.
Prarthana Muktva Samapyamah. Sahitya Bhagini Vadati Va
Om Sarve Bhavantu Sukhinaha Sarve Santu Niramayaha Sarve Badrani Pashyantu Makaschid Dukha Bhagbhavet Om Shanti 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 Harihi Om Shri Gurubhyo Namaha Harihi Om.
Uttamam. Dhanyavada, Bhagini.
Dhanyavada.
Sarvebhya Dhanyavada.
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 Shubharatri.
Dhanyavada.